ब्रह्मणे नमः। श्री विष्णु सहस्रनाम महामंत्र जपम् हरि ओ। शुक्लां वरधरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये। व्यासं वसिष्ठनक्तारं शक्तेः पौत्रमकल्मषं पराशरात्मजं वन्दे शुकतातं तपोनिधिं। व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः। अविकाराय शुद्धाय नित्याय परमात्मने सदैकरूपरूपाय विष्णवे सर्वजिष्णवे। यस्य स्मरणमात्रेण जन्म संसारबन्धनात् विमुच्यते नमस्तस्मै विष्णवे प्रभ विष्णवे। ॐ नमो विष्णवे प्रभ विष्णवे। श्री वैशंपायन उवाच श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः युधिष्ठिरश्चान्तनवम् पुनरेवाभ्यभाषत। युधिष्ठिर उवाच इमेकम् दैवतम् लोके किम् वाप्येकम् परायणम् स्तुवन्तः कम् कमर्चन्तः प्राप्नुयुर्मानवाः शुभम्। को धर्मः सर्वधर्माणाम् भवतः परमो मतः किम् जपन्मुच्यते जन्तुर्जन्म संसारबन्धनात्। श्रीभीष्म उवाच जगत्प्रभुम् देवदेवमनन्तम् पुरुषोत्तमम् सुवन्नामसहस्रेण पुरुषः सततोत्थितः तमेव चार्चयन्नित्यम् भक्त्या पुरुषमव्ययम् ध्यायन् सुवन्नमस्यंश्च यजमानस्त्वमेव च अनादिनिधनम् विष्णुम् सर्वलोकमहेश्वरम् लोकाध्यक्षम् सुवन्नित्यम् सर्वदुःखादिवो भवेत्। ब्रह्मण्यम् सर्वधर्मज्ञम् लोकानाम् कीर्तिवर्धनम् लोकनाथम् महद्भूतम् सर्वभूतभवोद्भवम्। एष मे सर्वधर्माणाम् धर्मोऽधिकतमो मतः यद्भक्त्या पुण्डरीकाक्षम् स वै रक्षेन्नरः सदा। परमम् यो महत्तेजः परमम् यो महत्तपः परमम् यो महद्ब्रह्म परमम् यः परायणम्। पवित्राणाम् पवित्रम् यो मङ्गलानाम् च मङ्गलम् दैवतम् देवतानाम् च भूतानायो व्ययकृता। यतः सर्वाणि भूतानि भवन्त्यादियुगागमे यस्मिंश्च प्रलयम् यान्ति पुनरेव युगक्षये। तस्य लोकप्रधानस्य जगन्नाथस्य भूपते विष्णोर्नाम सहस्रम् मे शृणु पापभयापहम्। यानि नामानि गौणानि विख्यातानि महात्मनः ऋषिविपरिगीतानि तानि वक्ष्यामि भूतये। ऋषिर्नाम्नाम् सहस्रस्य वेदव्यासो महामुनिः छन्दोऽनुष्टुप्तदा देवो भगवान् देवकीसुतः अमृतांशोद्भवो बीजम् शक्तिर्देवकीनन्दनः। त्रिसामाहृदयम् तस्य शान्तध्येऽभियुज्यते विष्णुम् जिष्णुम् महाविष्णुम् प्रभविष्णुम् महेश्वरम् अनेकरूपदैत्यान्तम् नमामि पुरुषोत्तमम्। अस्य श्रीविष्णोर्दिव्यसहस्रनामसोत्रमहामन्त्रस्य श्रीवेदव्यासो भगवान् ऋषिः अनुष्टुप्छन्दः। श्रीमहाविष्णुः परमात्मा श्रीमन्नारायणो देवता अमृतांशोद्भवो भानुरिति बीजम् देवकीनन्दनसृष्टेति शक्तिः उद्भवक्षोभणो देव इति परमो मन्त्रः। शङ्खभुन्नन्दकीचक्रीतिकीलकम् चार्यधन्वागदाधरैत्यस्त्रम् रथाङ्गपाणिरक्षोभ्यैति नेत्रम् त्रिसामासागः सामेति कवचम् आनन्दम् परब्रह्मेति योनिः ऋतुः सुदर्शनः काल इति दिग्बन्धः विश्वरूप इति ध्यानम्। श्रीमहाविष्णुप्रीत्यर्थे सहस्रनामजपे विनियोगः ध्यानम्। क्षीरोदन्वत्प्रदेशे शुचिमणिविरसत्सैकते मौक्तिकानाम् मालाक्लप्तासनस्थस्फटिकमणिभिर्मौक्तिकैर्मण्डिताङ्गः शुभ्रैरभ्रैरभ्रैरुपरिविरसितैर्मुक्त पीयूषवर्षैः आनन्दीनः पुनीयादैनैनगदा शङ्खपाणिर्मुकुन्दः भूपादौ यस्य नाभिर्वियदसुरनिरश्चन्द्रसूर्यौ च नेत्रे कर्णावासास्योर्मुखमपि दहनो यस्य वास्तेयमब्धिः अन्तस्थम् यस्य विश्वम् सुरनरखगो भोगि गन्धर्वदैत्यैः चित्रम् रम् रम्यतेतम् त्रिभुवनवपुषम् विष्णुमीशम् नमामि ॐ नमो भगवते वासुदेवाय शान्ताकारम् भुजगसेनम् पद्मनाभम् सुरेशम् विश्वाकारम् गगनसदृशम् मेघवर्णम् शुभाङ्गम् लक्ष्मीकान्तम् कमलनयनम् योगि हृद्यानगम्यम् वन्दे विष्णुम् भवभयहरम् सर्वलोकैकनाथम् मेघश्यामम् प्रीतकौशेयवासम् श्रीवत्साङ्गम् कौस्तुभोद्भासिताङ्गम् पुण्योपेतम् पुण्डरीकायताक्षम् विष्णुम् वन्दे सर्वलोकैकनाथम् नमः समस्तभूतानामादिभूताय भूभृते अनेकरूपरूपाय विष्णवे प्रभविष्णवे सशङ्खचक्रम् सकिरीटकुण्डलम् सपीतवस्त्रम् सरसीरुहेक्षणम् सहारवक्षस्तरशोभिकौस्तुभम् नमामि विष्णुम् शिरसा चतुर्भुजम् छायायाम् पारिजातस्य हेमसिंहासनोपरि आसीनमम्बुदश्यामवायताक्षमलङ्कृतम् चन्द्रानम् चतुर्बाहुम् श्रीवत्साङ्कितवक्षसम् रुक्मिणी सत्यभामाभ्याम् सहितम् कृष्णमाश्रये हरिः ओ विश्वम् विष्णुर्वशत्कारो भूतभव्यभवत्प्रभुः भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः भूतात्मा परमात्मा च मुक्तानाम् परमागतिः अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च योगो योगविदाम् नेता प्रधानपुरुषेश्वरः नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः सर्वः सर्वस्यवस्तानुर्भूतादिर्निधिरव्ययः सम्भवो भावनो भक्ता प्रभवः प्रभुरीश्वरः स्वयम्भूशम्भुरादित्यः पुष्कराक्षो महाश्वरः अनादिनिधनो धाता विधाता धातुरुत्तमः अप्रमेयो हृषीकेशः पद्मनाभो मरप्रभुः विश्वकर्मा मनुस्पष्टा स्तविष्टस्तविरो ध्रुवः अग्राह्यः शाश्वतः कृष्णो लोहिताक्षप्रतर्दनः प्रभूतस्थिरबुद्धाम पवित्रम् मङ्गलम् परम् ईशानः प्राणः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ईश्वरो विक्रमी धन्वी मेधावी विक्रमक्रमः अनुत्तमो दुराधर्श कृतज्ञकृत्यात्मवान् सुदेशः शरणम् शर्म विश्वरेता प्रजाभवः अहः संवत्सरो व्याळः प्रत्ययः सर्वदर्शनः अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः वृषा कपिलमेयात्मा सर्वयोगविनिःसृतः वसुर्वसुमनाः सत्यः समात्मान् संमितः समः अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः रुद्रो बहुशिरा बभ्रुर्विश्वयो विसृजिश्रवाः अमृतश्चाश्वतस्ताणुर्वरारोहो महातपाः सर्वः सर्वविद्भानुर्विश्वक्सेनो जनार्दनः वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित्तविः लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः चतुरात्मा चतुर्व्यूहश्चतुर्दंशश्चतुर्भुजः भाविष्णुर्भोजनम् भोक्ता सहिष्णुर्जगदादिजः अनभो विजयोजेता विश्वयोनि पुनर्वसुः उपेन्द्रो वामनः प्रांशुरमोघः सुजिरोजितः अतीन्द्रः सङ्ग्रहः सर्गो धृतात्मा नियमो यमः वेद्यो वैद्यः सदा योगी वीरः माधवो मधुः अतीन्द्रियो महामायो महोत्साहो महाबलः महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः अनिर्देश्य वपुः श्रीमानमेयात्मा महाधिधृक् महेश्वासो महीभर्ता श्रीनिवासः सताङ्गतिः अनिरुद्धः सुरानन्दो गोविन्दो गोविदाम्पतिः మరీచిర్దమలోహంసః సువర్ణో భుజగోత్తమః హిరణ్యనాభః సుతపా పద్మనాభః ప్రజాపతిః అమృత్యుః సర్వదృక్సింహః సంధాతా సంధిమాన్ స్థిరః అజో దుర్మర్షణశ్చాస్థా విశ్రుతాత్మాసురారిహ గురుర్గురుతమో ధామః సత్యః సత్యపరాక్రమః నిమిషో నిమిషస్సర్గే వాచస్పతిరుదారధీః అగ్రణీ బ్రాహ్మణి సీమా న్యాయో నేతా సమీరణః సహస్రమూర్ధా విశ్వాత్మా సహస్రాక్ష సహస్రపాక్ ఆవర్తనో నివృత్తాత్మా సంవృతః సంప్రవర్ధనః అహః సంవర్తకో వహ్నిరణిలో ధరణీధరః సుప్రసాదః ప్రసన్నాత్మా విశ్వధృగ్విశ్వభుక్తిభుః సత్కర్తా సత్కృతః సాధుర్జహ్నుః నారాయణో నరః అసంఖ్యేయో ప్రమేయాత్మా విశిష్టః శిష్టకృచ్ఛుచిః సిద్ధార్థసిద్ధసంకల్పసిద్ధిరః సిద్ధిసాధనః వృషాజీ వృషభో విష్ణుర్వృషపర్వా వృషోదరః వర్ధనో వర్ధమానశ్చ వివిక్త శ్రుతిసాగరః సుభుజోరుద్ధరో వాగ్మీ మహేంద్రో వసుధో వసుః నైకరూపో బృహద్రూపశిరిష్ఠప్రకాశనః ఓజస్తేజోద్యుతిధరః ప్రకాశాత్మా ప్రతాపనః రుద్ధస్పష్టాక్షరో మంత్రశ్చంద్రాంశుర్భాస్కరద్యుతిః అమృతాంశుర్భవో భానుశశబిందుసురేశ్వరః ఔషధం జగతస్యేతుః సత్యధర్మపరాక్రమః భూతభవ్యభవన్నాథ పవన పావనో నరః కామః కామకృత్కాంతః కామః కామప్రభుః యుగాదికృద్యుగావర్తో నైకమాయో మహాశనః అదృశ్యో వ్యక్తరూపశ్చ సహస్రజిదనంతజిత్ ఇష్టో నిశిష్టః శిష్టేష్టః శిఖండీనవృషో వృషః క్రోధః క్రోధకృత్కర్తా విశ్వబాహుర్మహీధరః అచ్యుతప్రతిదప్రాణప్రాణదో వాసవానుజః అపాంనిధిరధిష్టానమప్రమత్తప్రతిష్ఠితః స్కందస్కందధరో ధుర్యో వరదో వాయువాహనః వాసుదేవో బృహద్భానురాదిదేవపురందరః అశోకస్తారణస్తారః శూరశౌరిర్జనేశ్వరః అనుకూలశ్చ తావర్తః పద్మీ పద్మనిభేక్షణః పద్మనాభోరవిందాక్ష పద్మగర్భశరీరభృత్ మహద్భిర్వృద్ధో వృద్ధాత్మా మహాక్షో గరుడధ్వజః అతులశ్చో భీమః సమయజ్ఞో హరిర్హరిః సర్వలక్షణలక్షణ్యో లక్ష్మీవాంసమితింజయః వీక్షరో రోహితో మార్గో హేతుర్దామోదరః సహ మహీధరో మహాభాగో వేగవానమితాశనః ఉద్ధవక్షోభణో దేవ శ్రీగర్భ పరమేశ్వరః కరణం కారణం కర్తా వికర్తా గహనో గుహః వ్యవసాయో వ్యవస్థానః సంస్థానస్థానదో ధ్రువః పరర్థి పరమస్పష్టస్తుష్టః పుష్టసుభేక్షణః రామో విరామో విరతో మార్గో నేయో నయో నయః వీరశక్తిమతాం శ్రేష్ఠో ధర్మో ధర్మవిదుత్తమః వైకుంఠపురుషప్రాణప్రాణప్రణవప్రదుః హిరణ్యగర్భశత్రుఘ్నో వ్యాప్తో వాయురథోక్షగః ఋతుసురస్య నఃకాలః పరమేష్ఠీ పరిగ్రహః ఉగ్రః సంవత్సరో దక్షో విశ్రామో విశ్వదక్షిణః విస్తారస్తావరస్థాణుః ప్రమాణం బీజమవ్యయం అర్థోనర్థో మహాకోశో మహాభోగో మహాధనః అనిర్విన్నస్తవిష్టో భూర్ధర్మయూపో మహామకః నక్షత్రణేమి నక్షత్రీ క్షమక్షామః సమీహనః యజ్ఞయుజ్యో మహేజ్యశ్చ క్రతుస్వత్రం సదాంగతిః సర్వదర్శీ విముక్తాత్మా సర్వజ్ఞో జ్ఞానముత్తమం సుహృదస్సుముఖః సూక్ష్మః సుఘోషః సుకరః సుహృత్ మనోహరోజితక్రోధో వీరబాహుర్విదారణః స్వాపనస్వసో వ్యాపీ నైకాత్మా నైకకర్మకృత్ వత్సరో వత్సరో వత్సీ రత్నగర్భో ధనేశ్వరః ధర్మగుర్ధర్మకృద్ధర్మీ సరసక్షరమక్షరం అవిజ్ఞాతా సహస్రాంశు విధాతా కృతలక్షణః గభస్తినేమి సత్వస్థ సింహో భూతమహేశ్వరః ఆదిదేవో మహాదేవో దేవేశో దేవభృద్గురుః ఉత్తరో గోపతిర్గోక్తా జ్ఞానగమ్యః పురాతనః శరీరభూతవృద్ధోక్తా కపీంద్రో భూరిదక్షిణః సోమపోమృతపః సోమః పురుషిత్పురుషత్తమః వినయోజయః సత్యసంధో దాశార్థః సాత్వతాంపతిః జీవో వినయితా సాక్షీ ముకుందో మితవిక్రమః అంభో నిధిరనంతాత్మా మహోదతిశయోంతకః అజో మహార్హ స్వాభావ్యో జితామిత్రప్రమోదనః ఆనందోనందనోనందః సత్యధర్మాత్రివిక్రమః महर्षिक्कपिलाचार्यः कृतज्ञो मेधीपतिः त्रिपदस्त्रिदशाध्यक्षो महासृङ्गकृतान्तकृत् महावराहो गोविन्दः सुषेणः कनकाङ्गदी गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः वेदास्वाङ्गोजितः कृष्णो दृढः सङ्कर्षणोद्युतः वरुणो वारुणो वृक्षपुष्कराक्षो महामनः भगवान् भगहानन्दी वनमालीहलायुधः आदित्यो ज्योतिरादित्यः स हि शुक्रतिसप्तमः सुधन्वाखण्डपरशुद्धारुणो द्रविणप्रदः दिवस्पृक्सर्वदृग्व्यासो वाचस्पतिरयो निजः त्रिसामासामगः सामनिर्वाणम् भेषजम् भिषक् सन्न्यासकृच्छमस्यान्तो निष्ठा शान्तिपरायणम् शुभाङ्गशान्तिरस्रष्टा कुमुदकुवलेशयः गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः अनिवर्ती निवृत्तात्मा संक्षेप्ताक्षेमकृच्छिवः श्रीवत्सवक्षा श्रीवास श्रीपति श्रीवदाम्बरः श्रीध श्रीस श्रीनिवास श्रीनिधि श्रीविभावनः श्रीधर श्रीकर श्रेयः श्रीमान् लोकत्रयाश्रयः स्वक्षस्वङ्गस्य दानन्दो नन्दिर्ज्योतिर्गणेश्वरः विजितात्मा विधेयात्मा सत्कीर्तिश्चिन्न संशयः उदीर्णः सर्वतश्चक्षुरहीशश्चाश्वतस्थिरः भूषयो भूषणो भूतिर्विशोकशोकनाशनः अर्चिष्मारर्चितकुम्भो विशुद्धात्मा विशोधनः अनिरुद्धो प्रतिरथः प्रद्युम्नो मितविक्रमः कालनेमीयावीरः शौरिः शूरजनेश्वरः त्रिलोकात्मा त्रिलोकेश केशवः केशिहाहरिः कामदेवः कामपालः कामी कान्तकृतागमः हरिर्देशवपुर्विष्णुः वीरो नन्तो धनञ्जयः ब्रह्मण्यो ब्रह्मकृद्ब्रह्म ब्रह्म ब्रह्मविवर्धनः ब्रह्मविब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः महाक्रमो महाकर्मा महादेशामहोरगः महाक्रतुर्महायज्ञा महायज्ञो महाहरिः सव्यस्तव प्रियस्तोत्रम् सुधिस्तोतारणप्रियः पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरामयः मनोजवस्ति अकरो वसुरेता वसुप्रदः वसुप्रदो वासुदेवो वसुर्वसुमनाहरिः सद्गति सत्कृतिः सत्ता सद्भूतिः सत्परायणः शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः भूता वासो वासुदेवः सर्वासु निरयो नः दर्पः दर्पदो तृप्तो दुर्धरोधापराजितः विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान् अनेकमूर्तिरव्यक्तशतमूर्तिशतानः एकोनैकः सवक्कः किम् यत्तत्पदमनुत्तमम् लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी वीरः विषमः शून्यो घृताशीरचलश्चलः अमानीमानदो मान्यो लोकस्वामी त्रिलोकहृत् सुमेधामेधजोधन्यः सत्यमेधाधराधरः तेजो वृषो द्युतिधरः सर्वशस्त्रभृताम्बरः प्रग्रहो निग्रहो व्यग्रो नैकः शृङ्गो गदाग्रजः चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः चतुरात्मा चतुर्भावश्चतुर्वेदविवेकपात् समावर्तो निवृत्तात्मा रुज्जयो दुरतिक्रमः दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिह शुभाङ्गो लोकसारङ्गः सुदन्तुस्तन्तुवर्धनः इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः अर्को वाजसनः शृङ्गी जयन्तः सर्वविज्जयी सुवर्णबिन्दुरक्षोभ्यः सर्वभागीश्वरेश्वरः महाप्रदो महागर्तो महाभूतो महानिधिः कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनो निरः अमृतासोऽमृतवपुः सर्वज्ञः सर्वतोमुखः सुलभः सुरतः सिद्धः शत्रुजिच्चतुरापनः न्यग्रोधोदुम्बरो सर्धश्चाणूरान्ध्रनिशोधनः सहस्राचिः सप्तजिह्वः सप्तैधा सप्तवाहनः अमूर्तिरनघो चिन्त्यो भयकृद्भयनाशनः अनुर्बृहकृशस्थूलो गुणभृन्निर्गुणो महान् अधृतस्वधृतस्वास्य प्राग्वंशो वंशवर्धनः भारभृक्कथितो योगी योगीशर्वकामदः आश्रमश्रवणक्षामः सुवर्णो वायुवाहनः धनुर्धरो धनुर्वेदो दण्डो दमयितादमः अपराजितः सर्वसहो नियन्ता नियमो यमः सत्त्ववान् सात्विकः सत्यः सत्यधर्मपरायणः अभिप्राय प्रियार्होह प्रियकृत् प्रीतिवर्धनः विहाय सगतिर्ज्योतिः सुरुचिर्हृत भुग्विभुः रविर्विलोचनः सूर्यः सविता रविलोचनः अनन्तो हुत भुग्भोक्ता सुखगो नैकजोऽग्रजः अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतः सनात्सनातनतमः कपिलः कपिलव्ययः स्वस्तितः स्वस्ति कृत्स्वस्ति स्वस्ति भुक्स्वस्ति दक्षिणः हरौत्रः कुण्डलीचक्री विक्रम्योचितशासनः शब्दादिकः शब्दसः शिशिरः शर्वरीकरः अक्रूरः पेशरो दक्षो दक्षिणः क्षमिणाम्बरः विद्वत्तमो वीरभयः पुण्यश्रवणकीर्तनः उत्तारणो दुष्णुतिः पुण्यो दुःस्वप्नाशनः वीरारक्षणः सन्तो जीवनः पर्यवस्थितः अनन्तरूपो नन्दश्रीधितमन्युर्भयापहः चतुरस्रोगभीरात्मा विदिशो व्यादिशोदिशः अनादिर्भूर्भुवो लक्ष्मी सुवीरो रुचिराङ्गदः जननो जनजन्मादिर्भीमो भीमपराक्रमः आधारनिलयोधाता पुष्पहासः प्रजागरः ऊर्ध्वः सत्पथाचारः प्राणदः प्रणवपणः प्रमाणम् प्राणनिलयः प्राणभृत्प्राणजीवनः तत्त्वम् तत्त्वविवेकात्मा जन्ममृत्युजरादिकः भूर्भुवः स्वस्तरुस्तारः सविता प्रपितामहः यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः यज्ञभृद्यज्ञकृद्यज्ञी यज्ञभृद्यज्ञसाधनः यज्ञान्तकृद्यज्ञगुह्यमन्नमन्नादयेव च आत्मयोनिस्वयम् जातो वैखानः सामगायनः देवकीनन्दनः स्रष्टा क्षितीशत्पापनाशनः शङ्खभृन्नन्दकीचक्री शार्ङ्गधन्वागदाधरः रहाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः सर्वप्रहरणायुध ॐ नम इति वनमाली गदीशाङ्गी शङ्खी चक्री च नन्दकी श्रीमान्नारायणो विष्णुर्वासुदेवोऽभिरक्षतु वनमाली गदीशाङ्गी शङ्खी चक्री च नन्दकी श्रीमान्नारायणो विष्णुर्वासुदेवोऽभिरक्षतु इतीदम् कीर्तनीयस्य केशवस्य महात्मनः नाम्नाम् सहस्रम् दिव्यानामशेषेण प्रकीर्तितम् यैदम् शृणुयान् नित्यम् यश्चापि परिकीर्तयेत् नाशुभम् प्राप्नुयात् किञ्चित् सोमुत्रेह च मानवः वेदान्तको ब्राह्मणस्यात् क्षत्रियो विजयी भवेत् वैश्योधनसमृद्धस्यात् शूद्रः सुखमवाप्नुयात् धर्मार्थी प्राप्नुयात् धर्ममर्थार्थी चार्थमाप्नुयात् कामानवाप्नुयात् कामी प्रजार्थी चाप्नुयात् प्रजाः भक्तिमान्यः सदोत्थाय शुचिस्तद्गतमानसः सहस्रम् वासुदेवस्य नाम्नामेतत् प्रकीर्तयेत् यशः प्राप्नोति विपुलम् याति प्राधान्यमेव च अचलाम् श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम् न हयम् क्वचिदाप्नोति वीर्यम् तेजश्च विन्दति भवत्य रोगो द्युतिमान् बलरूपगुणान्वितः रोगात्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम् स्तुवन्नाम सहस्रेण नित्यम् भक्तिसमन्वितः वासुदेवाश्रयो मर्त्यो वासुदेव परायणः सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम् न वासुदेव भक्तानामशुभम् विद्यते क्वचित् जन्म मृत्युजरा व्याधिभयम् नैवोपजायते इमम् सर्वमधीयानः श्रद्धा भक्तिसमन्वितः युजेदात्मसुखक्षान्ति श्रीधृति स्मृतिकीर्तिभिः न क्रोधो न च मात्सर्यम् न लोभो नाशुभामतिः भवन्ति कृतपुण्यानाम् भक्तानाम् पुरुषोत्तमे द्यौश्च चन्द्रार्कनक्षत्रम् कम् दिशो भूर्महोदतिः वासुदेवस्य वीर्येण विधृतानि महात्मनः ससुरासुरगन्धर्वम् स यक्षोरगराक्षसम् जगद्वशे वर्ततेदम् कृष्णस्य सचराचरम् इन्द्रियाणि मनोबुद्धिः सत्त्वम् तेजोबलम् धृतिः वासुदेवात्मकान्याहुः क्षेत्रम् क्षेत्रज्ञ एव च सर्वागमानामाचारः प्रथमम् परिकल्पते आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः ऋषयः पितरो देवा महाभूतानि धातवः जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम् योगो ज्ञानं तथा साङ्ख्यं विद्याशिल्पादिकर्म च वेदाशास्त्राणि विज्ञानमेतत्सर्वं जनार्दनात् एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः त्रीन् लोकान् व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः इमं सर्वं भगवतो विष्णोर्व्यासेन कीर्तितम् पठेद्य इच्छेत् पुरुषः श्रेयः प्राप्तुं सुखानि च विश्वेश्वरमजं देवं जगदप्रभुमव्ययम् भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम् न ते यान्ति पराभव ॐ नम इति अर्जुन उवाच पद्मपत्रविशालाक्ष पद्मनाभसुरोत्तम भक्तानामनुरक्तानां ताता भव जनार्दन श्रीभगवानुवाच यो मां नाम सहस्रेण स्तोतुमिच्छति पाण्डव सोऽहमेकेन श्लोकेन श्रुत एव न संशयः श्रुत एव न संशय ॐ नम इति व्यास उवाच वासनाद्वासुदेवस्य वासितं भुवनत्रयं सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते श्रीवासुदेव नमोऽस्तु त ॐ नम इति पार्वत्युवाच केनोपायेन लघुना विष्णोर्नाम सहस्रकम् पठ्यते पण्डितैर्नित्यं श्रोतुमिच्छाम्यहं प्रभो ईश्वर उवाच श्रीराम राम रामेति रमे रामे मनोरमे सहस्रनाम तत्तुल्यं राम नाम वरानने श्रीराम राम रामेति रमे रामे मनोरमे सहस्रनाम तत्तुल्यं राम नाम वरानने श्रीराम राम रामेति रमे रामे मनोरमे सहस्रनाम तत्तुल्यं राम नाम वरानने श्रीराम नाम वरानन ॐ नम इति ब्रह्मोवाच नमोऽस्तनन्ताय सहस्रमूर्तये सहस्रपादाक्षि शिरोरुबाहवे सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटियुगधारिणे नमः श्रीसहस्रकोटियुगधारिण ॐ नम इति सञ्जय उवाच यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः तत्र श्रीर्विजयो भूति ध्रुवानीतिर्मतिर्मम श्रीभगवानुवाच अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृताम् धर्मसंस्थापनार्थाय सम्भवामि युगे युगे पार्था विषण्णाश्चिराश्च भीताः घोरेषु च व्याधिषु वर्तमानाः सङ्कीर्त्य नारायणशब्दमात्रम् विमुक्तदुःखाः सुखिनो भवन्ति यदक्षरपदभ्रष्टम् मात्रा हीनम् तु यद्भवेत् तत्सर्वम् क्षम्यताम् देव नारायण नमोऽस्तु ते येन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृते स्वभावात् करोमि यद्यः सकलम् परस्मै नारायणायेति समर्पयामि श्रीमन्नारायणायेति समर्पयामि सर्वम् श्रीकृष्णार्पणमस्तु हरिः ओम्।